इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्य वार्ताः। विकसितभारतस्य मार्गः जनानाम् ऐक्ये निहितः अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना गोवानगरस्य सार्धपञ्चशततमे मानोत्सवमठे भक्तान् सम्बोधयन् उक्तम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना भारतं स्वावलम्बीकर्तुं नवमन्त्राः प्रदत्ताः। सः उडुपीनगरस्य श्रीकृष्णमठे लक्षकण्ठगीतापारायणकार्यक्रमे च भागम् अगृह्णात्। राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती यत् समाजम् अधिकसमावेशयुतं शान्तियुतं स्वस्थं मूल्य आधारितञ्च कर्तुं सर्वकारेण अनेकानि पदोत्थापितानि सन्तीति। द्वितीयत्रैमासिके भारतेन प्रायः सपादाष्टप्रतिशतं जीडीपी इत्यस्य वृद्धिः अभिलिखिता अस्ति। अपि च दितवाह चक्रवातः तमिलनाडु पुदुच्चेरीति तटं प्रति गच्छन् अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना श्रीलंकादेशस्य जनान् प्रति शोकसंवेदना प्रकटिता। अथ वार्ताः विस्तरेण। विकसितभारतस्य मार्गः जनानाम् ऐक्ये निहितः अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। प्रधानमन्त्री अवदत् यत् अनेकाः कठिनपरिस्थितयः सम्मुखीकृत्य अपि गोवाराज्यं न केवलं स्वस्य मूलसंस्कृतेः संरक्षणम् अकरोत्, अपि तु कालान्तरे तस्य पुनरुज्जीवनमपि अकरोत्। गोवाराज्यस्य कानकोनानगरसमीपस्थस्य श्रीसंस्थान गोकर्णपरतगली जीवोत्तममठस्य सार्धपञ्चशततममानोत्सवे भक्तानां समागमं सम्बोधयन् सः समाजाय चिरस्थायि योगदानाय ऐतिहासिकमठस्य प्रशंसाम् अकरोत्।
आज जब इस पवित्र मठ के 550 वर्ष पूरे हो रहे हैं, तब हम इतिहास का उत्सव मनाने के साथ ही भविष्य की दिशा भी तय कर रहे हैं। विकसित भारत का रास्ता एकता से होकर जाता है। जब समाज जुड़ता है, जब हर क्षेत्र हर वर्ग एक साथ खड़ा होता है, तभी राष्ट्र बड़ी छलांग लगाता है। श्री संस्थान गोकर्ण परतगाली जीवोत्तम मठ का प्रमुख ध्येय लोगों को जोड़ना, मन को जोड़ना, परंपरा और आधुनिकता के बीच सेतु बनना है। इसलिए विकसित भारत की यात्रा में ये मठ एक प्रमुख प्रेरणा केंद्र की भूमिका में भी है।
श्री मोदी ही अवदत् यत् एषा संस्था न केवलम् आस्थायाः अपि तु मानवतायाः संस्कृतेः च रक्षणं करोतीति। प्रधानमन्त्रिणा परतगली इत्यत्र प्रभु श्रीरामस्य 77-फिटमितस्य कांस्यप्रतिमायाः अनावरणमपि कृतम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्रियकार्याय समर्पितान् नवसंकल्पान् प्रति नागरिकाणां प्रतिबद्धता प्रार्थिता। अद्य उडुपीनगरे श्रीकृष्णमठस्य भक्तान् सम्बोधयन् सः जलस्य नद्याश्च संरक्षणाय एक पेड़ माके नाम इत्यस्य भागः भवितुं न्यूनातिन्यूनम् एकस्य दरिद्रस्य उत्थानाय अस्माकम् अर्थव्यवस्थायाः उद्यमशीलानाञ्च रक्षणाय स्वदेशी आन्दोलनेत्यस्य प्रोत्साहनाय साधूनां भक्तानां नागरिकाणाञ्च समर्थनं याचितवान्। सः जनान् प्राकृतिक कृषिं प्रोत्साहयितुं बृहन्धान्यानाम् उपयोगेन स्वस्थजीवनशैल्याः अनुसरणं कर्तुं, तैलस्य उपयोगं न्यूनीकर्तुं, योगं दैनन्दिनजीवनस्य भागरूपेण स्वीकर्तुं च आहूयत्।
हमारा पहला संकल्प होना चाहिए कि हमें जल संरक्षण करना है, पानी बचाना है, नदियों को बचाना। हमारा दूसरा संकल्प होना चाहिए कि हम पेड़ लगाएंगे। देश भर में एक पेड़ माँ के नाम अभियान को गति मिल रही। इस अभियान के साथ अगर सभी मठों का सामर्थ्य जुड़ जाएगा तो इसका प्रभाव और व्यापक होगा। तीसरा संकल्प कि हम देश के कम एक गरीब का जीवन सुधारने का प्रयास करें।
प्रधानमन्त्रिणा भारतीयाः स्वपरम्परायै प्रसिद्धानि 25 स्थानानि द्रष्टुमपि आवाहिताः। भगवतः कृष्णस्य उपदेशैः युक्ता भगवद्गीता केन्द्रसर्वकारस्य अधिकांशकार्यक्रमाणां प्रेरणा अस्तीति सः अवदत्।
लक्षकण्ठगीता का ये अवसर एक विशाल ऊर्जा पिण्ड को अनुभव करने का अवसर बन गया है। ये विश्व को सामूहिक चेतना की शक्ति भी दिखा रहा। श्री श्री सुगणेन्द्र तीर्थ स्वामी जी, उन्होंने जिस कोटि गीता लेखन यज्ञ की शुरुआत की है, वो अभियान सनातन परंपरा का एक वैश्विक जन आंदोलन है।
सः स्वर्ण प्रलेपितं तीर्थमण्डपम् उद्घाटितवान् तथा च स्वर्ण प्रलेपितं कनककिण्डी इति पवित्रं द्वारमपि समुद्घाटितवान् यस्य विषये मान्यतास्ति यत् भगवता कृष्णेन आत्मनः भक्ताय सन्त कनकदासाय उद्घाटितमासीदिति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य प्रोक्तं यत् भारतं स्पष्टनीतिभिः निरन्तरकार्यैः सशक्तप्रयासैश्च बालविवाहस्य उन्मूलनार्थं कार्यं करोति। महिलाबालविकासमन्त्री अन्नपूर्णादेवी इत्यनया बालविवाहस्य अन्त्यस्य उपायाः इति विषये लिखितं लेखं सामाजिकप्रसारमाध्यमेषु प्रसारयन् प्रधानमन्त्री एतत् समुल्लिखितवान्। स्वकीये लेखे मन्त्रिणा बालविवाह मुक्तभारतस्य आवाहनं कृतम् आसीत्। राष्ट्रपतिपदासीना द्रौपदी मुर्मू अद्य अवदत् यत् भारतसर्वकारः समाजम् अधिकसमावेशीति भावयुतं शान्तियुतं स्वस्थं मूल्याधारितञ्च कर्तुम् अनेकानि महत्वपूर्णानि पदानि समुत्थापयन्नस्तीति। ब्रह्मकुमारीति समूहस्य अस्य वर्षस्य वार्षिकध्येयबिन्दुत्वेन वैश्विक एकतायै विश्वासाय च ध्यानम् इत्यस्य उद्घाटनावसरे राष्ट्रपतिः उक्तवती यत् वैश्विकरूपेण योगस्य ध्यानस्य च प्रोत्साहनाय अन्ताराष्ट्रिय योग दिवसाभियानस्य नेतृत्वादयः च एतादृशाः उपक्रमाः सन्तीति। सा उक्तवती यत् भारतस्य प्राचीना संस्कृतिः सर्वदा जगते वसुधैव कुटुम्बकम् इत्यस्य सन्देशम् अददात्। अद्यत्वे यदा विश्वं बहूनां समस्यानां सम्मुखीकरणं करोति तदा एते विचाराः इतोऽपि प्रासंगिकाः भवन्ति।
भारत की प्राचीन सभ्यता और संस्कृति ने सदैव विश्व को वसुधैव कुटुम्बकम् का संदेश दिया, अर्थात संपूर्ण विश्व हमारा परिवार है। आज जो विश्व कई चुनौतियों का सामना कर रहा है, तब ये विचार और अधिक प्रासंगिक बन गया है। इस महान संकल्प को सिद्ध करने के लिए इस अभियान का प्रभावी योगदान रहेगा।
अपराह्णे राष्ट्रपतिः भारत स्काउट एंड गाइड्स इत्यस्य हीरक जयन्त्योत्सवस्य समापन समारोहे भागम् अगृह्णात्। देशस्य सकल देशीयोत्पादः वार्तमानिक वित्तवर्षस्य द्वितीय त्रैमासिके 0.28% प्रबलं वृद्धिं प्राप्तवान् अस्ति। विषयेऽस्मिन् प्रधानमन्त्रिणा स्वकीये सन्देशे प्रसन्नता प्रकटिता, उक्तवान् च सः एतत् अस्मज्जनानाम् उद्यमशीलतां प्रकटयतीति। भारत ऋतुविज्ञान विभागेन बंगालखातस्य दक्षिण पश्चिम भागे उत्पन्नं दितवाह चक्रवातम् आलक्ष्य पुदुच्चेरी क्षेत्राय संचेतना प्रसारितास्ति। अरक्कोणम् इत्यतः 60 जनानां राष्ट्रिय आपदुद्धारबलम् अद्य पुदुच्चेरीं समागत्य मण्डलाध्यक्षम् अमिलत्। उद्धारकार्याय साहाय्यकार्याय च तटीय नदीक्षेत्रेषु च दलानि नियोजितानि भविष्यन्ति। केरलराज्यं प्रति अपि दलमेकं प्रेषितमस्ति। चक्रवातः 7-10 किलोमीटर प्रतिहोरायाः वेगेन तमिलनाडुतटं प्रति गतिशीलः अस्ति। ऋतुविभागानुसारेण एतत् कराईकल नगरात् 20-30 किलोमीटर दक्षिणपूर्वदिशि, चैनल इत्यस्मात् 30-500 किलोमीटर च दक्षिणदिशि अस्ति। प्रधानमन्त्री नरेन्द्रमोदी श्रीलंकादेशस्य प्रजाः प्रति शोकं प्रकटितवान्। दितवाह चक्रवातेन पीडितपरिवाराणां सुरक्षां शीघ्रस्वास्थ्यलाभाय च सः प्रार्थितवान् अपि। भारतदेशः ऑपरेशन सागरबन्धु इत्यस्यान्तर्गतं तत्क्षणमेव उपशमन सामग्रीः मानवीय साहाय्यञ्च प्रेषितवान्, इतोऽपि साहाय्यं कर्तुं सज्जः अस्तीति। जलशक्तिमन्त्री सीआर पाटिलः अद्य अवदत् यत् जलजीवन मिशन इत्यस्यान्तर्गतं सम्पूर्णे देशे 15 कोटि ग्रामीण गृहेभ्यः नल जल सम्पर्कः प्रदत्तोऽस्ति। नवदेहल्यां सुजलं भारत शिखर सम्मेलनं सम्बोधयन् श्रीपाटिलः प्रत्येकस्य नागरिकस्य सुस्थिर जलसुरक्षां सुनिश्चयाय सर्वकारस्य प्रतिबद्धतां पुनरुद्घाटितवान्। सः अवदत् यत् एतत् शिखर सम्मेलनं जलसंरक्षणार्थं वैज्ञानिक सुस्थिर दृष्टिकोणस्य निर्माणार्थं समग्र राष्ट्रव्यापि प्रयासस्य भागः अस्तीति। आकाशवाण्या सह विशेषरूपेण चर्चां कुर्वन् जलशक्तिमन्त्री अवदत् यत् सुजलमित्यभियानस्य साहाय्येन स्वतन्त्रतायाः शतवार्षिक्यं यावत् भारतं विकसितराष्ट्रं भविष्यतीति। इति वार्ताः।